गीता साधक संजीवनी तेरहवां अध्याय श्लोक 12 से 22 तक।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
त्रवक्ष्यामि यज्ञात्वाश्रुते अनादिमात्परं ब्रह्म न सत्तन्नाशदुच्यते सर्वतः पाणिपादन्त सर्वतो शिशिरोमुखं सर्वतः श्रुतिमल्लोके तिष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं असक्तं सर्वभेदैव निर्गुणं गुणभोक्तृ च बहिरन्तस्य भूतानामचरं चरमेव च सूक्ष्मत्वात्तद्विज्ञेयं दूरस्थं चान्तिके च तत् अविभक्तं च भूतेषु विभक्तमेव च स्थितं भूतभर्तृतज्ञेयं वशिष्णु प्रभवेष्णु च ज्योतिषामपि तज्ज्योतिस्तमस परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य वेष्टितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं श्रोतं समासत मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते प्रकृतिं पुरुषं चैव विघ्नादिभावपि विकारांश्च गुणांश्चैव वृद्धि प्रकृतिसंभवान् कार्यकरणकर्तृत्वे हेतु प्रकृतिरुच्यते पुरुषसुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुष प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसंयोस्य सदसद्योरिजन्मसु उपद्रष्टानुमन्त भोक्तामहेश्वर परमात्मेति चाप्युक्तो देहेस्मिन् पुरुष पर उपद्रष्टानुमन्त भूतमहेश्वर परमात्मेति चाप्युक्तो देहेस्मिन् पुरुष पर
वसुदेवसुतं देवं कंसचारुरमार्दनं देवकी